इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। प्रधानमन्त्री नरेन्द्र मोदी अद्य कर्णाटक तेलंगानयोः यात्रार्थं प्रतिष्ठते। सः बेंगलुरुनगरे आर्ट ऑफ लिविंग इत्येतस्य संस्थानस्य पञ्चचत्वारिंशत्तमीं वर्षपूर्तिम् एतस्य संस्थापकस्य गुरुदेव श्री श्री रविशंकरस्य सप्ततितमं जन्मदिवसं च उपलक्ष्य प्रकल्पिते एकस्मिन् समारोहे सहभागं करिष्यति। श्रीमोदी आर्ट ऑफ लिविंग परिसरे नवनिर्मितस्य ध्यानमन्दिरस्य ध्यानकक्षस्य च उद्घाटनं करिष्यति। एतत् कार्यक्रमात् पूर्वं सः एकां सभां सम्बोधयिष्यति। समारोहात् अनन्तरं प्रधानमन्त्री हैदराबादे प्रायः चतुश्शतोत्तर नवसहस्रकोटिरूप्यकाणाम् अनेकासां विकासपरियोजनानां शिलान्यासं लोकार्पणं च करिष्यति। श्रीमोदी हैदराबाद पणजी आर्थिक वीथिकायां सप्तषष्ट्यधिक शत संख्याके राष्ट्रिय राजमार्गे चतुर्भागपरक मार्ग निर्माणस्य आधारशिलाम् अपि स्थापयिष्यति। प्रधानमन्त्री वारंगले पीएम मित्रा पार्क इत्येतत् उद्यानम् अपि उद्घाटयिष्यति। अपि च सः हैदराबादे अत्याधुनिकं कर्करोगपरम् एकं चिकित्सालयम् अपि लोकाय अर्पयिष्यति। प्रधानमन्त्री नरेन्द्र मोदी कर्णाटक तेलंगानयोः यात्रानन्तरं अद्य गुजरातम् अपि गमिष्यति। द्विदिवसीय यात्रायाः प्रथमे दिने अद्य सः जामनगरं प्राप्नोति। तदनन्तरं द्वितीये दिने अर्थात् श्वः सः सोमनाथ मन्दिरस्य जीर्णोद्धारस्य पञ्चसप्तति वर्षपूर्त्यवसरे आयोजिते सोमनाथामृत महोत्सवे सहभागं करिष्यति। प्रधानमन्त्री अनेकेषु धार्मिकेषु सांस्कृतिकेषु च कार्यक्रमेषु सहभागं करिष्यति। सुवेन्दुः अधिकारी ह्यः पश्चिम बंगालस्य नूतन मुख्यमन्त्रित्वेन शपथं गृहीतवान्। इत्थं पश्चिम बंगाले भाजपेति दलस्य प्रथमं प्रशासनं संघटितम्। कोलकातायां ब्रिगेड परेड ग्राउण्ड इति स्थले आयोजिते भव्य समारोहे राज्यपालेन आर एन रविणा श्री सुवेन्दुः अधिकारी पदगोपनीयतायै प्रतिश्रावितः। तेन सह अन्ये पञ्चमन्त्रिणः अपि पदगोपनीयतायै शपथं गृहीतवन्तः। अत्रावसरे प्रधानमन्त्री केन्द्रीय गृहमन्त्री रक्षामन्त्री भाजपादलाध्यक्षः अनेके मुख्यमन्त्रिणः मन्त्रिणः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्। टीवीके दलप्रमुखः सी जोसेफ विजयः तमिलनाडुराज्यस्य नूतन मुख्यमन्त्रित्वेन अद्य प्रातः दशवादने शपथं ग्रहीष्यति। तेन सह अन्ये नवमन्त्रिणः अपि पदगोपनीयतायै शपथं ग्रहीष्यन्ति। तत्रान्तरे ह्यः नूतन सर्वकाररचनायै टीवीके दलेन प्रमाणितं यत् तत्पार्श्वे विंशत्युत्तर शत विधायकानां समर्थनं वर्तते। प्रधानमन्त्री ग्राम सड़क योजनायाः पञ्चविंशतितमीं वर्षपूर्तिम् उपलक्ष्य मध्यप्रदेशे सीहोर जनपदस्य भैरुन्दा स्थले अद्य रजत जयन्ती समारोहः आयोजयिष्यते। केन्द्रीय ग्रामीण विकास मन्त्री शिवराज सिंह चौहानः अस्य कार्यक्रमस्य अध्यक्षतां करिष्यति। भारतीयर्त्विभागेन आगामिषु द्वित्रेषु दिवसेषु केरल लक्षद्वीप दक्षिण कर्णाटक तमिलनाडु पुदुच्चेरी कराईक्कलेषु प्रचण्डवृष्टेः सम्भावना प्रकाशिता। प्रिया श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने सार्धैकवादनतः भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। अन्ते क्रीडावार्तासु, इण्डियन प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ जयपुरे आयोजिते द्वन्द्वे गुजरात टाइटन्स दलेन राजस्थान रॉयल्स दलं सप्तसप्तति धावनांकैः पराजितम्। आदोपणं विजित्य राजस्थान रॉयल्स दलं क्षेत्ररक्षणं कर्तुं निर्णीतवत्। ततः गुजरात टाइटन्स दलेन त्रिंशदधिक द्विशत धावनांकानां विजयलक्ष्यं स्थापितम्। वार्ताः